ॐ श्री गुरुभ्यो नमः हरिः ॐ वेदमनोचाचार्योऽन्तेवासिनमनुशास्ति सत्यं वद धर्मं चर स्वाध्यायान्मा प्रमदः आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः सत्यान्नः प्रमथितव्यम् धर्मान्नः प्रमथितव्यम् कुशलान्नः प्रमथितव्यम् भूत्यैनः प्रमथितव्यम् स्वाध्याय प्रवचनाभ्याम् नः प्रमथितव्यम् देवपितृकार्याभ्याम् नः प्रमथितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्मागगुं सुचरितानि तानि त्वयोपास्यानि नो इतराणि ॐ शान्तिः शान्तिः शान्तिः।